चिंतामणि प्रकर सदमसु कल्प वृक्ष लक्षावृतेषु सुरभीरभिपालयन्तम् लक्ष्मी सहस्रशतक संभ्रमसेवमानम् गोविन्दं हादिपुरुषं तमां भजामि चिंतामणि प्रकर सदमसु कल्प वृक्ष लक्षावृतेषु सुरभि रविपालयन्तम् लक्ष्मी सहस्रशत संभ्रम सेवमानम् गोविन्दम् आदिपुरुषं तमां भजामि वेणं कन्वन्तं अरविन्ददलयताक्षं वेणुं कन्वन्तं अरविन्ददलयताक्षं बरहावतं समसितां बुधसुन्दराङ्गम् कन्दर्पकोटि कमणीय विशेषशोभं गोविन्दम् आदिपुरुषं तमाहं भजामि चिंतामणि प्रकर सद्मसु कल्पवृक्ष लक्षावृतेषु सुरभीरवि पालयन्तम् लक्ष्मी सहस्रशत संभ्रम सेवमानम् गोविन्दम् आदिपुरुषं तमाहं भजामि आलोलचन्द्रकलश वनमालवंशी रत्नाङ्गदं प्रणयकैली कलाविलासं श्यामं त्रिभङ्गललितं नियतप्रकाशं गोविन्दम् आदिपुरुषं तमाहं भजामि चिंतामणि प्रकर सद्मसु कल्प वृक्ष लक्षावृतेषु सुरभि रवि पालयन्तम् लक्ष्मी सहस्र शत संभ्रम सेवमानं गोविंदं आदिपुरुषं तमाहं भजामि गोविंदं आदिपुरुषं तमाहं भजामि गोविंदं आदिपुरुषं तमाहं भजामि चिंतामणि अंगानि यस्य सकलेन्द्रियवृत्तिमन्ति पश्यन्ति पान्ति कलयन्ति चिरं जगन्ति अंगानि यस्य सकलेन्द्रियवृत्तिमन्ति पश्यन्ति पान्ति कलयन्ति चिरं जगन्ति आनन्द चिन्मय सदूस जलविग्रहस्य गोविंदं आदे पुरुषं तमाहं भजामि चिंतामणि प्रकर सदमशु कल्पवृक्ष लक्षावृतेषु सुरभि रवि पालयन्तं लक्ष्मी सहस्रशत संभ्रम सेवमानं गोविंदं आदिपुरुषं तमाहं भजामि 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 चिंतामणि प्रकर सदमशु कल्पवृक्ष लक्षावृतेषु रवि पालयन्तं चिंतामणि
The materialistic demi-nor cannot possibly stretch to the transcendental autocrat who is ever inviting the fallen conditioned soul to associate with him through devotion or eternal serving mode. The phenomenal attractions are often found to attempt sentient being to enjoy the variegated position which is opposed to undifferenced monism. People are so much apt to indulge in transitory speculation even when they are to educate themselves on the situation beyond their empiric area or experiencing jurisdiction, and almost foolishly they dare to declare that God is there.